सर्वेभ्यः श्रोतृभ्यः नमो नमः। स्वागतमस्ति भवतां सर्वेषाम् अस्मिन् साप्ताहिकी कार्यक्रमे। अहमस्मि कार्यक्रमस्य उद्घोषिका ऋचा झा। यथा वयं जानीमः यत् अस्य कार्यक्रमस्य प्रारम्भं सर्वदा सुभाषितेनैव भवति। एतत् सुभाषितं न केवलं कार्यक्रमस्य मंगलाय, ग्रन्थाधारितस्य ज्ञानस्य वर्धनाय, अपि तु अनुभववर्धनाय अपि अत्यन्तम् उपयोगी भवति। आगच्छन्तु दधि शृण्मः अद्यतनं सुभाषितं, यच्च प्रस्तौति अस्माकं सहयोगी पुनीत त्रिपाठी।
कण्टकावरणं यादृक् फलितस्य फलाप्तये, तादृक् दुर्जनसङ्गोऽपि साधुसङ्गाय बाधनम्। अर्थात् जिस प्रकार एक फलदायी वृक्ष के कांटे उसके फलों को प्राप्त करने में बाधा उत्पन्न करते हैं, वैसे ही दुष्ट व्यक्तियों की संगति भी साधु और सज्जन व्यक्तियों की संगति में बाधा उत्पन्न करती है।
अहो अति सुन्दरम्। अयि श्रोतृजनाः, सम्प्रति अग्रेसरामः प्रसंग प्रभागं प्रति, यत्र भावपूर्णं स्तवनं विदधाति अस्मदीयः सहयोगी नरेन्द्रदत्त सेमवालः।
प्रातः स्मरामि ललिता वदनारविन्दम्, विम्बाधरम् पृथुलमोक्तिकशोभिनासम्। आकर्णदीर्घनयनम् मणिकुण्डलाढ्यम्, मन्दस्मितं मृगमदोज्ज्वलभालदेशम्। प्रातर्वदामि ललिते तव पुण्यनाम, कामेश्वरीति कमलेति महेश्वरीति, श्रीशाम्भवी जगतां जननी परेति, वाग्देवतेति वचसा त्रिपुरेश्वरी।
अद्भुतम्। सम्मान्याः श्रोतारः, सम्प्रति साप्ताहिकी वार्ता प्रभागे प्रस्तूयते साप्ताहिकः वैश्विक वृत्तान्तः। साम्प्रतं साप्ताहिकी वार्ताः आदाय उपस्थिता अस्ति सुषमा कुमारी।
दिल्ली आरक्षिदलेन संसद भवन परिसरे भारतीय जनता पार्टीति दलीय सांसदयोः मध्ये संजाते संघर्षे आहतानन्तरं कांग्रेस नेतुं राहुल गांधीनं विरुध्य प्राथमिकी एका पञ्जीकारिता। लोकसभा अध्यक्षेण ओम बिडला वर्येण संसद भवनस्य द्वारे केनापि प्रकारस्य विरोध प्रदर्शने अवरोधनं स्थापितम्। आगामि मासे सम्पत्स्यमाणायाः परीक्षा पे चर्चा इत्यस्य कार्यक्रमस्य चर्चायाः अष्टमीय प्रकरणस्य कृते पञ्जीकरणं प्रारब्धं जातम्। वित्तमन्त्री निर्मला सीतारमण जैसलमेरस्थले विभिन्न राज्यानां वित्तमन्त्रिभिः साकं आय व्यय पत्रकस्य प्रस्तुतीकरण पूर्व परामर्श विहितः। क्रिकेट श्रृंखलायां महिलादलेन तृतीयायाम् अन्तिमायां च विंशति विंशति प्रतिस्पर्धायां वेस्टइंडीज देशं षष्टि धावनांकैः धूलिसात् कृतम्। आगामि वर्षस्य पैरा एथलेटिक्स विश्व प्रतिस्पर्धायाः अपि च विश्व पैरा एथलेटिक्स ग्रैंड पी इत्यस्य आयोजनं नवदिल्ल्यां भविष्यति। राष्ट्रिय सुशासन सप्ताह प्रारब्धं जातम्। कार्यक्रमोऽयं अशेषदेशे सप्तशताधिकेषु जनपदेषु आयोज्यते। विदेश सचिव विक्रम मिसरी मॉरिशस देशीय त्रिदिवसीय आधिकारिक यात्रायां प्रस्थित। नाइजीरिया देशे दक्षिण पश्चिम नगरे इबादाने क्रिसमस कार्यक्रम अवसरे संजाते जनसंवर्दे पंचत्रिंशत् बालकानां मृत्युः सूचना अधिगता।
प्रियाः श्रोतारः, साप्ताहिकी वार्ताभिः जागतिक घटना विषये ज्ञात्वा अनन्तरं पुनः उपस्थिताहम् ज्ञान विज्ञान प्रभागान्तर्गतम् एकम् साक्षात्कारम् आदाय। अस्माभिः साकम् संवादाय उपस्थितो अस्ति अस्माकम् सहयोगिन्या निधि तिवारी इत्यनया सह कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालये स्नातकोत्तर साहित्य विभागे सहायकाचार्यः डॉक्टर रितेश चतुर्वेदी महोदयः।
नमो नमः श्रोति जनेभ्यः। ज्ञान विज्ञान अंशे सर्वेषां स्वागतम् अस्ति। अहमस्मि निधि तिवारी। एतस्मिन् अंशे संवादाय उपस्थितो अस्ति विद्याभूषण भूषणेन भूषितः कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालये स्नातकोत्तर साहित्य विभागे सहायकाचार्यः डॉक्टर रितेश चतुर्वेदी महोदयः। नमस्काराः महोदय, भवताम् आकाशवाण्यां संस्कृत साप्ताहिकी इत्येतस्मिन् कार्यक्रमे स्वागतम् अहं करोमि। महोदय, भवताम् अध्ययनं कुतः कथं च संस्कृते प्रवृत्तिः प्रारब्धा कृपया प्रतिपादयतु।
यद्यपि अस्माकं प्रारम्भतः प्रारम्भिकी शिक्षा तु आङ्ग्लभाषामाध्यमेनैव जाता, किन्तु अस्माकम् अध्ययनं तु मुख्यतः काश्यामेव अभूत्। तत्र सम्पूर्णानन्द संस्कृतविश्वविद्यालये, काशीविद्यापीठे एवञ्च काशीहिन्दुविश्वविद्यालये, मध्ये शिक्षाशास्त्री बीएड इति कानपुरविश्वविद्यालयतः सञ्जातम्। अस्माकं प्रवृत्तिः संस्कृताध्ययनं प्रति कथं जाता इत्येतेषां विषये यदि विज्ञापयामश्चेत् तु अस्मत् कुलगुरवः प्रवृत्तामहं सूचयन्ति, एषः बालकः संस्कृते एव प्रभविष्णवः भविष्यति। तदा अस्माकं पितृभ्यः प्रेरितं, ते ज्योतिषशास्त्रविशारदाः सन्ति, ततः बाल्यकाले एव अस्माकं काश्याम् आगमनात् परम् आश्रमव्यवस्थायां, ततः रणवीरसंस्कृतविश्वविद्यालये, ततश्च सम्पूर्णसंस्कृतविश्वविद्यालये इत्यादि पूर्वं निर्दिष्टितं मया।
अहो समीचीनम्। सा काशी विदिता येन तेन प्राप्ता हि काशिका, भवताम् अध्ययनं काश्यां जातम्। तत्र किम् अस्ति अस्य वैशिष्ट्यं, कृपया प्रतिपादयतु एतस्मिन् विषये।
ओहो, सत्यम् उक्तवती भवत्याः। उक्तं च मङ्गलं मरणं यत्र विभूतिश्च विभूषणं कौसेयं सा काशिकेन मीयते। अहो, कीदृशी स्यात् ज्ञानविज्ञानसम्पोषिका काशिकेया साहित्यरसप्रवर्षणी विद्वत्परम्परा। तत्र महनीया विद्वत्शृङ्खला वर्तते। तदानीम् अस्माकम् अध्ययनकालेऽपि नैके विद्वांसः शास्त्रविशारदाः आसन्, इदानीमपि काश्यां सम्प्रति विद्यन्ते एव। तेषु अस्माकं गुरुपरम्परायां नैकशास्त्रविशारदाः अस्मत् गुरुचरणाः आचार्यपण्डितश्री वायुनन्दनपाण्डेमहोदयाः आसन्। येषां श्रीचरणेषु उपविश्य साहित्यशास्त्रस्य अध्ययनं विहितं मया। अन्ये महान् वैयाकरणाः रामयत्नशुक्लमहोदयाः, न्यायशास्त्रे आचार्यवशिष्ठत्रिपाठीमहोदयाः सन्ति, प्रोफेसर् रामपूजनपाण्डेमहोदयाः सन्ति। एतादृशानां गुरुचरणानां सान्निध्ये तत्तत्शास्त्राणाम् अध्ययनं मया कृतम्। एते समेषां स्वकीयविषये परं वैशिष्ट्यम् अवधारयन्ति। एतादृशी वर्तते अस्माकं काशिकीय विद्वत्परम्परा।
अस्तु, शोभनं तावत् महोदय। का शीतल वाहिनी गंगा इत्युक्ते काशी? भवतां शोधः गङ्गेत्यस्मिन् विषये, नमामि गंगे इति परियोजनायाम् आधुनिक सन्दर्भे वा कथमस्ति उपकारकः असौ शोधः, कृपया कथयतु।
आम्, अस्माकं विस्तृतं शोधः वर्तते गंगा विषये। तत्र वेदाद् आरभ्य इदानीन्तनीं गंगायाः मानवजीवनं प्रति किं वैशिष्ट्यं वर्तते, गंगायाः मानवजीवनं प्रति किं महत्त्वम् अस्ति, गङ्गायाः अभावे मानवजीवनोपरि कीदृक् प्रभावः भविष्यति इति तत्र सम्यक्तया विवेचितं मया। यद्यपि वेदे गङ्गाजलस्य महिमा औषधरूपेण प्राप्यते, ऋग्वेदे इमं मे गङ्गे जम्ने सुतद्रि स्तोमया इत्यादिरूपेण, संस्कृतसाहित्येऽपि गङ्गाजलस्य महिमा बहुधा व्याकृतं कविवर्यैः। जगन्नाथेन स्वकीयगङ्गालहर्यां गङ्गाजलस्य महिमा प्रतिपादितम् अमृतसहोदररूपेण। तत्र तेन उक्तं समृद्धं सौभाग्यं सकलबहुधायाः किमपि तन् महैश्वर्यं लीलाजयन्तजगतः खण्डपरशो श्रुतीनां सर्वस्वं सुकृतमथमूर्तं मनसां सुधासौन्दर्यं ते सरिलमशिवं नः शमयतु। यद्यपि वयं पश्यामश्चेत् नमामि गङ्गे परियोजना एवञ्च अस्माकं गङ्गाविषयकं शोधः इत्यनयोर्मध्ये कीदृशः सम्बन्धः वर्तते तर्हि कथयामः अन्योन्याश्रयसम्बन्धः वर्तते, यतोहि उभयत्रापि ध्येयम् एकमेव वर्तते, गङ्गायाः समृद्धिः, ताः रक्षणम् एवञ्च परिरक्षणं। यतोहि अस्माकं यशस्विनः प्रधानमन्त्री महोदयैः सम्यक्तया विदितं यत् गङ्गायाः भारतीयजनमानसं प्रति वैज्ञानिकम् आध्यात्मिकं तथा च आर्थिकं महत्त्वं किमस्ति, तेन तैः नमामि गङ्गे परियोजना आरभ्यते। यतोहि भारतीयजनमानसं प्रति सांस्कृतम् आध्यात्मिकं महत्त्वं तु गङ्गाजलस्य वर्ते एव, किन्तु गङ्गाजलस्य वैज्ञानिकं महत्त्वं किमस्ति इति मया स्वकीयशोधप्रबन्धे सम्यक्तया विवेचितम्। यदि विश्वविद्यालयेषु महाविद्यालयेषु शोधार्थिनः जनाः सामान्यजनाः अपि यदि शोधप्रबन्धस्य अस्माकं शोधप्रबन्धस्य अध्ययनं सम्यक्तया विधास्यन्ति तर्हि आधुनिकसन्दर्भेऽपि उपकारकः भविष्यति असौ गङ्गाविषयकः अस्माकं शोधप्रबन्धः।
सुष्ठुक्तं भवता। अस्तु आचार्य, साम्प्रतिके समये साहित्ये शोधस्य दिशा कथं स्यात्, तत्र अस्ति कीदृशी सम्भावना, कृपया विज्ञापयतु।
सत्यं, साम्प्रतिके संस्कृतसाहित्ये शोधस्य नैकविधप्रस्थानानि विद्यन्ते एव। इदानीमपि भारतवर्षे विभिन्नेषु विश्वविद्यालयेषु साहित्यविभागे साहित्याधारीकृत्य शोधस्य नवीनप्रकल्पाः जायन्ते एव। तत्र प्राचीनरचनाधर्मिताधारीकृत्य एवञ्च नवीनरचनाधर्मिताधारीकृत्य शोधस्य महती सम्भावना विद्यते। काव्यतत्त्वानि अभिधाय, काव्यसामाजिकी व्यवस्था च अभिधाय शोधमार्गे नवीनतायाः आधानं भविष्यति एव इति मन्ये।
अस्तु, शोभनम् आचार्य, किं लेखनं कृतं क्रियते वा भवता, एतस्मिन् विषये अपि कृपया प्रतिपादयतु।
किं कविस्तेन काव्येन किं काण्डेन धनुस्मतः परस्य हृदये लग्नं न घूर्णयति यक्षिरः। लेखनविषये किमधिकं वच्मि, यद्यपि संस्कृतसाहित्ये प्रतिदिनं नवीनलेखनं भवति, काव्यस्य रचना प्रतिदिनं भवति, तथापि अस्माकं शीघ्रमेव एका रघुवंशमधिकृत्य टीका प्रकाशिता जायते, शीघ्रमेव गङ्गाविषयकं ग्रन्थस्य प्रकाशनं भविष्यति। इदानीन्तनीं 20 शोधपत्राणि प्रकाशितानि सन्ति। धन्यवादाः।
भवद्भिः समयः प्रदत्तः, एतदर्थम् अहं धन्यवादान् विज्ञापयामि। नमो नमः।
मनोरञ्जकः, आनन्ददायकः, ज्ञानवर्धकः च एषः संवादः। अयि श्रोतारः, अधुना क्रमो वर्तते संस्कृत दिग्दर्शन प्रभागस्य, यत्र विश्वे संस्कृत संवर्धनाय अनुष्ठितानां कार्यक्रमाणां विषये सविस्तरं संसूचयति अस्मदीयः सहयोगी पुरुषोत्तम शर्मा।
नवदिल्लीस्थस्य केन्द्रीय संस्कृत विश्वविद्यालयस्य इन्फिनिटी फाउंडेशन ऑफ इंडिया इत्यनयोः संयुक्त तत्वावधाने संस्कृतानुवादम् अधिकृत्य दिनत्रय व्यापिनी कार्यशाला समायोजिता। गुरुवासरे विश्वविद्यालयस्य मुख्यालये एषा कार्यशाला सम्पन्ना। संस्कृत भारती दिल्ली प्रान्तेन आवासीयः प्रबोधन वर्गः आरप्स्यते। अयं वर्गः दिसम्बर मासस्य 31 दिनांकात् जनवरी मासस्य 8 दिनं यावत् भविष्यति। कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालयेन शुक्रवासरे गायिकायाः शारदा सिन्हा इत्यस्याः स्मृतौ लोक संस्कृति कार्यक्रमः आयोजितः। विश्वविद्यालयस्य कलारञ्जिनी मञ्चेन अयं कार्यक्रमः समायोजितः। केन्द्रीय संस्कृत विश्वविद्यालयस्य देवप्रयागस्थे श्री रघुनाथ कीर्ति परिसरे 7 सूर्य सिद्धांत कार्यशाला आयोजयिष्यते। एषा कार्यशाला दिसम्बर मासस्य 25 दिने आरप्स्यते।
अस्तु, अधुना बालवल्लरी प्रभागान्तर्गतम् बालानां ज्ञानवर्धनाय श्रीनिवास रामानुजन सम्बद्धा एका कथा प्रस्तूयते साधना शर्मणा।
बालाः, अद्य अहम् एकां कथां श्रावयामि। कथा एषा रामानुजन महोदयस्य जीवनेन सम्बद्धा अस्ति। रामानुजनः तमिलनाडु राज्यस्य कुम्भकोणम् नाम्नि नगरे जातः। सः बाल्यकालात् एव गणिते परमं कौशलं प्रदर्शयन् आश्चर्यं जनयति स्म। एकदा गणिताध्यापकः छात्रेभ्यः पाठयति स्म, द्वौ द्वौ च किं भवति? चत्वारि। रामानुजनः तत्क्षणमेव पृष्टवान्, कथं ज्ञायते इदं सत्यम्? अध्यापकः विस्मितः जातः। सः उक्तवान्, गणितस्य अस्ति एषः नियमः, किन्तु रामानुजनः नियमस्य मूलम् अन्वेष्टुं प्रवृत्तः। पुनः अनेकानि सूत्राणि योगसम्बद्धं प्रदत्तवान्। कदाचित् सः स्वगृहे पतङ्गस्य उड्डयनं करोति स्म। पतङ्गः समीपे गच्छति चेत् तस्य सूत्रं घटते, परं दूरं गच्छति चेत् तस्य लम्बः वर्धते। अनेन सः गणितं व्युत्पादयति स्म, यथा त्रिकोणं सम्भवति। तर्हि बालाः, एषा कथा शिक्षयति यत् गणितं न केवलं सूत्राणां समूहः, अपि तु चिन्तने प्रगतिम् अपि ददाति।
अतिसुन्दरी, ज्ञानप्रदायिनी च एषा कथा। प्रियाः सहृदयाः श्रोतारः, इदानीम् अग्रिमः प्रभागो अस्ति एकं भारतं श्रेष्ठं भारतम् इति, यत्र अस्माकं सहयोगिनी मुदिता वेतालः श्रावयति संस्कृत हिन्दी सिन्धी भाषासु नानाविध वाक्यानि।
प्रथमं वाक्यमस्ति, भारतस्य दक्षिण भागे केरलम् अस्ति। पहला वाक्य है, भारत के दक्षिण भाग में केरल राज्य है। सिंधी में, भारत जे दक्षिण भाग में केरल राज्य आहे। द्वितीयं वाक्यम अस्ति, अस्य राजधानी तिरुवनंतपुरम अस्ति। दूसरा वाक्य है, इसकी राजधानी तिरुवनंतपुरम है। सिंधी में, हिणजी राजधानी तिरुवनंतपुरम आहे। तृतीयं वाक्यम अस्ति, अस्य पश्चिम भागे अरब सागरः अस्ति। तीसरा वाक्य है, इसके पश्चिम भाग में अरब सागर स्थित है। सिंधी में, हिणजी पश्चिम भाग में अरब सागर आहे। चतुर्थम वाक्यम अस्ति, पूर्व भागे वन संपदा पूर्णाः पर्वताः सन्ति। चौथा वाक्य है, पूर्व भाग में वन संपदा से परिपूर्ण पर्वत स्थित है। सिंधी में, पूर्व भाग में वन संपदाओं में पूरो पर्वत आहे। पंचमं वाक्यम अस्ति, केरल इति ईश्वरस्य स्वभूमि ही अपि कथ्यते। पांचवा वाक्य है, केरल को ईश्वर की अपनी भूमि भी कहा जाता है। सिंधी में, केरल के ईश्वर जी पेंजी भूमि चयो वेंदुआ। धन्यवादाः।
अहो सम्यक्, भवत्यै साधुवादाः। श्रोतारः, आगच्छन्तु साम्प्रतम् आन्वीक्षिकी वार्ता प्रभागे। जानीमः अद्यतनीयाः काश्चन ऐतिहासिकी वार्ताः। तमिलनाडु राज्ये महान गणित शास्त्रज्ञ श्रीनिवास रामानुजन वर्यः 87-18 शततमे वर्षे दिसंबर मासस्य 22 दिनांके जन्म प्राप्नोत्। रामानुजन वर्यस्य जन्म वार्षिकस्य स्मरणार्थं प्रतिवर्षं दिवसोऽयं राष्ट्रिय गणित दिवसत्वेन आचर्यते। प्रसिद्धः भारतीय चलचित्र संगीतकारः वसंत देसाई हिंदी मराठी चलचित्रेषु स्वकार्यस्य कृते प्रसिद्धः आसीत्। 75-19 शततमस्य वर्षस्य दिसंबर मासस्य 22 दिनांके असौ मृत्युमुपगतः। 150-18 शततमे वर्षे अस्मिन्नेव दिवसे भारतस्य प्रथमस्य वस्तुवाहक रेलयानस्य संचालनं रुड़की नगरे अभवत्। दिसंबर मासस्य दिवसोऽयं वर्षस्य लघुतमः दिवसः अस्ति। अद्यैव संथाल परगना संस्थापना दिवसः अपि आचर्यते। अयि श्रोतृवृन्दाः, अधुना आगतो अस्ति समयः प्रस्थान वेलायाः, किन्तु अग्रिमे सप्ताहे अस्मिन्नेव काले एकम् अभिनवम् अंकम् आदाय पुनः उपस्थास्यामहे। तावत्पर्यन्तं भवन्तः सर्वे स्वीय जिज्ञासां प्रतिपुष्टि प्रक्रियां अस्मान् प्रेषितुं शक्नुवन्ति। अस्माकं ईमेल संकेतो वर्तते nsdsanskrit@gmail.com इति। नमो नमः।